एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नेपालस्य गणतन्त्र घोषणायाः अद्य अष्टादश वर्षाणि प्रपूरितानि सन्ति। पञ्चषष्ट्युत्तर द्विसहस्रतमस्य वैक्रमाब्दस्य ज्येष्ठमासस्य पञ्चदशे दिवसे उपविष्टेन प्रथमायाः संविधानसभायाः प्रथमोपवेशेन नेपाले औपचारिकरूपेण गणतन्त्रस्य घोषणा विहिता आसीत्। संघीय गणतन्त्र घोषणायाः कृते ज्येष्ठमासस्य पञ्चदशो दिवसः नेपाले युगान्तकारी दिवसत्वेन मन्यते। तस्यैव संस्मरणे नेपाले अद्य गणतन्त्र दिवसः आयोज्यमानोऽस्ति। द्विषष्टि त्रिषष्ट्यधिक द्विसहस्रतम वैक्रमाब्दस्य जनान्दोलनस्य आधारभूमौ गणतन्त्र घोषणायाः ऐतिहासिक दिवसस्य संस्मरणपूर्वकं प्रतिवर्ष ज्येष्ठमासस्य पञ्चदशे दिवसे आराष्ट्रं विविधै कार्यक्रमैस्सह दिवसोऽयं समायोज्यते। गणतन्त्र दिवस मूल समारोह समित्या अद्य टुणखेलवर्तिनी सैनिक मञ्चे विशेष कार्यक्रम समायोज्यमानोऽस्ति। गणतन्त्र दिवसमुपलक्ष्य राष्ट्रपतिना रामचन्द्र पौडेलेन सर्वेभ्यो नेपालीभ्य शुभकामना सन्देश प्रदत्तो वर्तते। शुभकामना सन्देशे गणतन्त्र स्थापनार्थं विहितस्य आन्दोलनस्य हुतात्मभ्य श्रद्धाञ्जलिं प्रकटयता राष्ट्रपतिना पौडेलेन गणतन्त्रस्य स्थापनायै आन्दोलनं कृतवतां राजनीतिकदलानां नेतृणां नेपाल नागरिकाणां च योगदानस्य प्रशंसा विहिता अस्ति। एवमेव अवसरेऽस्मिन् प्रदत्ते शुभकामना सन्देशे उपराष्ट्रपतिः रामसाय प्रसाद यादवः गणतन्त्रस्य स्थापनायै विहितानाम् आन्दोलनानां हुतात्मनः संस्मरन् गणतन्त्रं नेपालीजनानां सुखाय शान्तये समृद्धये च महत्वपूर्णमस्तीति उक्तवान् वर्तते। गणतन्त्र दिवस मूल समारोह समित्या अद्य सैनिक मञ्चे समायोज्यमानस्य विशेष कार्यक्रमस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणं विधास्यते। आगामिनः आर्थिक वर्षस्य कृते नेपाल सर्वकारस्य आय व्ययकस्य विवरणम् अद्य अपराह्नस्य चतुर्वादने संघीय संसदयोः द्वयोः सदनयोः संयुक्तोपवेशे प्रस्तूयमानम् अवर्तते। सीमाप्रासादवर्तिनी नवीने निर्माणाधीने संसद्भवने बहुद्देश्यीय सभाकक्षे उपवेशः आहूतोऽस्ति। सांविधानिक व्यवस्थायाः अनुसारेण अद्य अर्थमन्त्री डॉ सोनी मवागले आगामिनः आर्थिक वर्षस्य कृते आय व्ययकस्य अनुमानितं विवरणं संसदः संयुक्तोपवेशे प्रस्तौति। आय व्ययकस्य प्रस्तुतेः पूर्वं पादून चतुर्वादने एव प्रतिनिधिसभायाः राष्ट्रियसभायाश्च सांसदाः संसदीय आसने उपस्थातुं निर्दिष्टाः सन्ति। संसद सचिवालयस्य प्रवक्तुः एकराम गिरी इत्यस्य अनुसारेण नवीनस्य भवनस्य प्रतिनिधिसभायाः कक्षे एव संयुक्तोपवेशस्य संचालनाय पूर्वकार्यं विधीयमानम् आसीत्, परं अधुनावधि भवनस्य अलंकरणस्य कार्यं सम्पादितं नास्तीत्यतः बहुद्देश्यीय कक्षात् एव आयव्ययकस्य प्रस्तुतेः कार्यक्रमो निर्धारितो वर्तते। संयुक्तोपवेशे स्थानाभावस्य कारणात् सांविधानिक निकायानां पदाधिकारिणः, सर्वकारस्य उच्चपदस्थाधिकारिणः, नेपालवर्तिनः, कूटनीतिक नियोगानां प्रमुखाः, प्रतिनिधयश्च आहूताः न सन्तीति प्रवक्ता गिरी असूचयत्। संघीय संसदि प्रस्तोष्यमाणस्य सर्वकारस्य आयव्ययक वक्तव्यस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणं विधास्यते। अत्रान्तरे राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् अर्थमन्त्रिणा डॉ सोनी वाग्ले विधेन आगामिनः आर्थिक वर्षस्य आय व्ययकस्य प्राथमिकतायाः सिद्धान्तस्य च विषयः विज्ञापितोऽस्ति। ह्य राष्ट्रपति कार्यालयं प्राप्य अर्थमन्त्री डॉ वाग्ले आगामिनः आर्थिक वर्षस्य कृते राजस्वस्य व्ययस्य च वार्षिकम् अनुमानितं विवरणं राष्ट्रपतिम् अबोधयत्। तदवसरे अर्थमन्त्री डॉ वाग्ले संघीय संसदि प्रस्तुतम् एतद् विक्रमवर्षीयम् आर्थिक सर्वेक्षणं सार्वजनिक संस्थानानां वार्षिक स्थितेः समीक्षा प्रतिवेदनमपि प्रस्तौत्। नेपाली कांग्रेस दलेन सर्वकारः बहुमतस्य बलेन दायित्वविहीनः जायमानोऽस्तीति निष्कर्षः प्रकाशितोऽस्ति। कांग्रेस संसदीय दलस्य ह्य उपविष्टेन उपवेशेन प्रधानमन्त्रिणा बालेन्द्र शाहेन संसदि न उपस्थाय जनतां प्रति उत्तरवाहित्वं दायित्वबोधस्य न प्रदर्शितमस्तीति निष्कर्षः प्रकाशितो वर्तते। संसदीय दलस्य उपवेशस्य अनन्तरं संचारकर्मिभिः सह कांग्रेस संसदीय दलस्य प्रमुख सचेतक पदीया वासना थापा प्रधानमन्त्रिणः संसदीय अनुपस्थिति गणतन्त्र दिवसस्य समारोहे अविधीयमानं सम्बोधनञ्च प्रति कांग्रेसदलस्य गभीरं ध्यानाकर्षणं सम्भूतमस्तीति अगदत् प्रमुख सचेतक पदिया थापा जेन्जी इति युवान्दोलनस्य विषये राष्ट्रिय मानवाधिकार आयोगस्य प्रतिवेदनं यथाशीघ्रं क्रियान्वेतुं बलं प्रदाय विधेरूपरि कोऽपि न भवतीति चर्चयन्ति विधिसम्मत प्रक्रिया च कांग्रेसदलेन स्वीक्रियते इति च उक्तवती। परराष्ट्रमन्त्री शिशिर खनालः विमर्शनाय प्रकाशितस्य आवासीयतर नेपाली सम्बद्धस्य विधेयकस्य प्रारूपम् आधृत्य सर्वेषां सम्बद्ध निकायानां प्रतिनिधिभिस्सह विमृक्ष्यते इति उक्तवान् अस्ति। एसोसिएशन अफ नेपाली ओरिजिन एएनओ इति संस्थायाः केन्द्रीय समितेः नेतृत्वस्य प्रतिनिधिमण्डलेन सह ह्यः सम्भूते मेलने परराष्ट्रमन्त्री खनालः प्रारूपमेतत् प्रारम्भिकम् अस्ति, त्यतः सम्बद्धैः सर्वैः पक्षैस्सह व्यापकरूपेण विमृश्य एव संसदि प्रस्तुत इति असूचयत्। एएनओ इति संस्थया अधिनियमस्य प्रारूपस्य कतिपयानि शीर्षकाणि अव्यावहारिकाणि सन्ति, त्यतः विदेशेषु स्थितान् नेपालिनो नेपालेन योजयितुं प्रारूपम् एतत् पर्याप्तं न भवतीति उक्त्वा मन्त्रिणः खनालस्य ध्यानाकर्षणं विहितमासीत्। अष्टाभ्य मासेभ्य पूर्वं जल विप्लवेन क्षतिग्रस्तस्य बीपी राजमार्गस्य पुनर्निर्माण कार्यं तीव्रगत्या अग्रे वर्धितमस्ति। पूर्वाधार सचिवेन गोपाल प्रसाद सिग्देलेन नेपालस्य कृते जापान देशीय राजदूतेन माएदा तोरू इत्यनेन च संयुक्त रूपेण शिलान्यासस्य विधानस्य अनन्तरं पुनर्निर्माण कार्यं तीव्रगत्या अग्रे वर्धितमस्ति। राजमार्गस्य पुनर्निर्माण कार्यं जापान सर्वकारस्य सहयोगेन जायमानमस्ति। नेपाल संस्कृत विश्वविद्यालयान्तर्गतस्य वाल्मीकि विद्यापीठस्य अनुसन्धान व्यवस्थापन समितेः आयोजनायां विश्वविद्यालयानुदान आयोगस्य सहयोगेन च संस्कृत शिक्षायां ज्ञान हस्तान्तरण सम्बद्धा कार्यशाला गोष्ठी ह्यः सम्पन्ना अस्ति। अस्यैव ज्येष्ठ मासस्य द्वादश दिवसात् ह्यस्तन दिवसं यावत् सञ्चाल्यमानस्य कार्यक्रमस्य उद्घाटन सत्रे विश्वविद्यालयानुदान आयोगस्य सचिवः डाक्टर केदार प्रसाद आचार्यः संस्कृत शिक्षायाः समाजोपयोगितायाः जीवनोपयोगितायाश्च विषये महत्त्वं प्रदर्शितवान् इति समाचारः।